त्यागः स्वदेशरक्षार्थम्।
आर्ये, सर्वनाशः!
किं जातं प्रतिहार?
शीघ्रं कुमाररक्षायाः उपायं कुरु।
कस्मात्?
दुष्टवनवीरात्। स महाराजं विक्रमं हत्वा राजकुमारं हन्तुमायाति।
एवं? तर्हि उदयं बहिर्नय।
कुत्र? त्वां विना कथं स जीविष्यति?
शीघ्रं कुरु, उदयस्थाने स्वपुत्रं स्वापयिष्यामि।
राजपुत्रं रक्षितुं स्वपुत्रस्य बलिदानम्? पन्ने, त्वं नारी नासि, देवी।
पन्ने, कुत्रास्ति उदयः?
वनवीर, त्वं उदयस्य संरक्षकः, तं न मारय।
शीघ्रं कथय, कुत्रास्ति उदयः?
पापपुण्यं विचारय कृपया, अन्यायं मा कुरु।
कथयसि न वा, अन्यथा त्वामपि मारयिष्यामि।
नीच, नराधम, दूरं गच्छ, अन्यथा तव रक्तपानं करिष्यामि।
किम् एष उदयः?
हीनकार्यं मा कुरु, भगवान् सर्वं पश्यति।
तूष्णीं, शत्रुविनाशः परमो धर्मः।
हा राक्षस, किं कृतं त्वया?
वत्स, प्रियपुत्र मम, क्षमस्व माम्।
पुत्रस्य बलिदानेन या करोत् देशरक्षणम्, धन्यापन्नाख्यधात्री स धन्यं तदीयजीवनम्। पुत्रस्य बलिदानेन या करोत् देशरक्षणम्, धन्या पन्नाख्यधात्री सा धन्यं तदीयजीवनम्।